अस्य श्री हनुमन्महामन्त्रस्य श्री पञ्चमुखी हनुमान् देवता हनुमानिति बीजं वायुसुत इति शक्तिः अञ्जनासुत इति कीलकम् ॐ श्रीरामचन्द्रवीर हनुमत्प्रसादसिद्ध्यर्थं सकललोकोपकारार्थं पञ्चमुखी हनुमत्कवचस्तोत्रमन्त्रजपे विनियोगः ॐ अञ्जनासुताय अङ्गुष्टाभ्यां नमः ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ॐ वायुपुत्राय मध्यमाभ्यां नमः ॐ अग्निगर्भाय अनामिकाभ्यां नमः ॐ रामदूताय कनिष्ठिकाभ्यां नमः ॐ पञ्चमुखी हनुमते करतलकरपृष्ठाभ्यां नमः अञ्जनासुताय अङ्गुष्टाभ्यां नमः ध्यानम् उद्यन्मार्ताण्डकोटीरुचिरमययुतं चारुवीरासनस्थं मौञ्जीयज्ञोपवीताभरणमुरुजटाशोभितं कुण्डलाभ्यां भक्तानामिष्टदं तं प्रणयमनुदितं वेदनादप्रणादं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिं श्रीरामचन्द्रदूताय अञ्जनावायुपुत्राय महाबलाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाभयप्रचण्डाय फल्गुणसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिरालम्बिताय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेविताय दुष्टनिरालङ्कृताय अङ्गदलक्ष्मणकपिसैन्यप्राणनिर्वाहकाय दशकण्ठविध्वंसनाय रामेष्टाय फल्गुणसखाय सीतासमेत श्रीरामचन्द्रप्रसादकाय ॐ ह्रीं मर्कटमर्कटाय वं 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 वषट् स्वाहा ॐ ह्रीं मर्कटमर्कटाय फं 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 फट् स्वाहा ॐ ह्रीं मर्कटमर्कटाय खें 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 मारणाय स्वाहा ॐ ह्रीं मर्कटमर्कटाय ठं 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 स्तम्भनाय स्वाहा ॐ मर्कटमर्कटाय ॐ ॐ ॐ ॐ ॐ अङ्क्रसि सकलसम्पत्कराय स्वाहा ॐ ऊर्ध्वमुखहयग्रीवाय रुं 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 रुद्रमूर्तये सकलनिर्वाहकरणाय पञ्चमुखी वीरहनुमते स्वाहा उच्चाटनं कुरु कुरु ॐ ढं 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 कवचमूर्तये पञ्चमुखी वीरहनुमते परमन्त्रपरतन्तोच्चाटनाय स्वाहा ॐ कं खं गं घं अं चं छं जं झं ञं टं ठं डं ढं नं तं थं दं धं नं पं फं बं भं मं यं रं लं वं षं षं सं हं लं षं स्वाहा ॐ पूर्वे कपिमुख पञ्चमुखी हनुमते ढं 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 सकलशत्रुसंहरणाय स्वाहा ॐ पञ्चमुखी हनुमते दक्षिणे करालवदन नृसिंहमुखाय हां 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 सकलभूतप्रेतदमनाय स्वाहा ॐ पञ्चमुखी हनुमते पश्चिमे गरुडमुखाय मं 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 सकलविषहराय स्वाहा ॐ ह्रीं पञ्चमुखी हनुमते उत्तरे आदिवराहमुखाय लं 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 सिंहनीलकण्ठमूर्तये पञ्चमुखी हनुमते अञ्जनासुताय वायुपुत्राय सीताशोकदुःखनिवारणाय ద్రోణాద్రివరహరణాయ శ్రీరామచంద్రపాదసేవకాయ మహావీర్య ప్రథమ బ్రహ్మాండనాయకాయ పంచముఖీ మహావీర హనుమతే నమః. భూత ప్రేత పిశాచ బ్రహ్మ రాక్షస గ్రహ పరమంత్ర పరతంత్రోచ్చాటనాయ స్వాహ. సకల నిర్వాహకరణ పంచముఖీ హనుమద్వర ప్రసాదకాయ జం 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 కవచం పఠేత్. ఇతి సుదర్శన సంహితాయ పంచముఖీ మారుతి స్తోత్రం సంపూర్ణం.